अथ कृष्णाष्टकम् भजे व्रजैकमण्डनम् समस्तपापखण्डनम् स्वभक्तचित्तरञ्जनम् सदैव नन्दनन्दनम् सुपिच्छगुच्छमस्तकम् सुनादवेणुहस्तकम् यनङ्गरङ्गसागरम् नमामि कृष्णनागरम् मनोजवर्गमोचनम् विशाललोललोचनम् विधूतगोपशोचनम् नमामि पद्मलोचनम् करारविन्दभूधरम् स्मितावलोकसुन्दरम् महेन्द्रमानदारणम् नमामि कृष्णवारणम् कदम्बसूनुकुण्डलम् सुचारुगण्डमण्डलम् व्रजाङ्गनैकवल्लभम् नमामि कृष्णदुर्लभम् यशोदया समोदया सगोपया सनन्दया युतम् सुखैकदायकम् नमामि गोपनायकम् सदैव पादपङ्कजम् मदीयमानसे निजम् दधानमुक्तमालकम् नमामि नन्दबालकम् समस्तदोषशोषणम् समस्तलोकपोषणम् समस्तगोपमानसम् नमामि कृष्णलालसम् भुवो भरावतारकम् भवाब्धिकर्णधारकम् यशोमतीकिशोरकम् नमामि चित्तचोरकम् दृगन्तकान्तभङ्गिनम् सदा सदालसङ्गिनम् दिने दिने नवम् नवम् नमामि नन्दसम्भवम् गुणाकरम् सुखाकरम् कृपाकरम् कृपापरम् सुरद्विषन्निकन्दनम् नमामि गोपनन्दनम् नवीनगोपनागरम् नवीनकेलिलम्पटम् नमामि मेघसुन्दरम् तडित्प्रभालसत्पटम् समस्तगोपनन्दनम् मृदम्बुजैकमोदनम् नमामि कुञ्जमध्यगम् प्रसन्नभानुशोभनम् निकामकामदायकम् दृगन्तचारुसायकम् रसालवेणुगायकम् नमामि कुञ्जनायकम् विदग्धगोपिकामनोमनोज्ञतल्पशायिनम् नमामि कुञ्जकानने प्रवृद्धवह्निपायिनम् किशोरकान्तिरञ्जितम् दृगञ्जनम् सुशोभितम् गजेन्द्रमोक्षकारिणम् नमामि श्रीविहारिणम् तदा यदा यथा तथा तथैव कृष्णसत्कथा मया सदैव गीयताम् तथा कृपा विधीयताम् प्रमाणिकाष्टकद्वयम् जपत्यधीत्य यः पुमान् भवेत् सनन्दनन्दने भवे भवे सुभक्तिमान् इति श्रीमच्छङ्कराचार्य विरचितम् कृष्णाष्टकम् सम्पूर्णम्।